అపనేయముదే తుమిచ్చత తిమిరం రోషమయం ధియా పురః అవిభిత్య నిశాకృతం తమః ప్రభయా నాంశుమతాప్యుదీయతే. అపనేయమితి ఉదేతుం అభ్యుదేతుం ఇచ్ఛత రాజ్ఞ పురః ప్రథమం రోషమయం రోషాదాగతం మయచ్చ ఇతి మయట్ తిమిరం అజ్ఞానం ధియా వివేకబుద్ధ్యా కరణేన అపనేయం అపనోద్యం తథాహి అంశుమతాపి కర్త్రా ప్రభయా తేజస కరణేన నిశాకృతం తమః ధ్వాంతం అవిభిద్య న ఉదీయతే కింతు విభిద్యైవ ఇత్యర్థః. సూర్యస్యాపి ఏవం కిముత అన్యేషాం ఇతి అపిశబ్దార్థః. ఇణః భావే లట్ నను దుర్బలస్య ఏవం అస్తు బలీయసస్తు క్రోధాదేవ కార్యసిద్ధిరిత్యత ఆహ. బలవానపి కోపజన్మనః తమసో నాభిభవం రుణద్ధియః క్షయపక్ష ఇవైందవీః కలాః సకలాహంతి సశక్తి సంపదః. బలవానితి బలవాన్ శూరః అపి యః కోపాత్ జన్మ యస్య తస్య కోపజన్మనః. అవర్జ్యో బహువ్రీహిర్వ్యధికరణో జన్మాద్యుత్తరపదః ఇతి వామనః. తమసః మోహస్య కృద్యోగాత్ కర్తరి షష్ఠీ అభిభవం ఆక్రాంతిం న రుణద్ధి న నివారయతి. సహ నృపః క్షయస్య పక్షః క్షయపక్షః కృష్ణపక్షః ఐందవీః ఇందుసంబంధినీః కలాః ఇవ. కలాతు షోడశో భాగః ఇత్యమరః. సకలాః సమగ్రాః శక్తిసంపదః ప్రభుమంత్రోత్సాహశక్తీః తిస్రః అపి హంతి నాశయతి. అంధస్య జంఘాబలమివ క్రోధాంధస్య లోకోత్తరమపి సామర్థ్యం వ్యర్థమేవ ఇత్యర్థః. అత్ర కాలస్య సర్వకారణత్వాత్ క్షయపక్షస్య కలాక్షయకారిత్వం అస్త్యేవ. తమసస్తు తత్కాల విజృంభణాత్ తథా వ్యపదేశః. సమవృత్తిరుపైతి మార్దవం సమయే యశ్చ తనోతి తిక్మతాం అధితిష్ఠతి లోకమోజసా సవివస్వానివ మేదినీపతిః. సమేతి యః సమా నాతిమృదుః నాతితిగ్మా వృత్తిః యస్య సః సమవృత్తిః సన్ సమయే సత్యవసరే మార్దవం మృదువృత్తిత్వం ఉపైతి తిగ్మతాం తీక్ష్ణవృత్తిత్వం చ తనోతి. సః మేదినీపతిః వివస్వానివ ఓజసా తేజసా లోకం అధితిష్ఠతి ఆక్రామతి. సూర్యః అపి ఋతుభేదేన సమవృత్తిరిత్యాది యోజ్యం. క్వచిరాయ పరిగ్రహశ్రియాం క్వచ దుష్టేంద్రియవాజివశ్యత శరదభ్రచలాశ్చలేంద్రియైః అసురక్షాహి బహుచ్ఛలాశ్రియః. క్వేతి స श्रियां संपदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्वा इन्द्रियाणि वाजिन इवेति समासः दुष्टानां अमार्गधाविनां इन्द्रियवाजिनां वश्यः वशंगतः तस्य भावः तत्ता क्वा न उभयं एकत्र तिष्ठतीत्यर्थः कुतः हि यस्मात् शरदभ्रवत् चलाः चञ्चलाः किञ्च बहुच्छलाः बहुव्याजाः बहुरन्ध्राः इति यावत् छलन्तु स्खलिते व्याजे इति विश्वः श्रियः संपदः चलेन्द्रियैः अजितेन्द्रियैः असुरक्षाः रक्षितुम् अशक्याः कथञ्चित् प्राप्ताः अपि श्रियः न अविनीतेषु तिष्ठन्तीत्यर्थः वाक्यार्थहेतुकम् काव्यलिङ्गमलङ्कारः किमसामयिकम् वितन्वता मनसः क्षोभमुपात्तरम् हसः क्रियते पतिरुच्चकैरपाम् भवता धीरतया धरीकृतः किमिति उपात्तरम् हसः प्राप्तत्वरस्य मनसः समयः अस्य प्राप्तः सामयिकः समयस्तदस्य प्राप्तम् इति ठञ् स न भवतीति असामयिकः तम् अप्राप्तकालम् क्षोभम् वितन्वता भवता धीरतया धैर्यगुणेन मनसो निर्विकारत्वम् धैर्यम् सत्स्वपि हेतुषु इति रसिकाः अधरीकृतः तिरस्कृतः प्रागिति शेषः अपाम्पतिः समुद्रः किम् किमर्थम् उच्चकैः अधिकः क्रियते न पराजितम् पुनः उच्चकैः कुर्यादिति भावः अत्र वितन्वतेति भीमविशेषणत्वेन अपाम्पतिपदार्थस्य उच्चैः करणे हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः श्रुतमप्यधिगम्य ये रिपून् विनयन्ते न शरीरजन्मनः जनयन्त्यचिराय सम्पदाम् अयशस्ते खलु चापलाश्रयम् श्रुतमिति किञ्च ये श्रुतम् शास्त्रम् अधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून् कामक्रोधादीन् न विनयन्ते न नियच्छन्ति कर्तृस्थे च शरीरे कर्मणि इत्यात्मनेपदम् ते खलु अचिराय सम्पदाम् चापलाश्रयम् अस्थैर्यनिबन्धनम् अयशः दुष्कीर्तिम् जनयन्ति आश्रयदोषात् अस्थैर्यम् सम्पदाम् न स्वदोषादित्यर्थः अजितारिषड्वर्गस्य कुतः सम्पदः इति भावः अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति अतिपातितेति अतिपातितानि अतिक्रान्तानि कालः समयः अनुरूपः साधनानि सहायादीनि ययासा तथोक्ता तापयतीति तापनी कर्तरि ल्युट् टित्वात् ङीप् स्वस्य यत् शरीरम् इन्द्रियवर्गश्च तयोः तापनी अक्षमा क्रोधः भवन्तं जनवत् पृथज्जनम् इव तेन तुल्यम् इति वतिप्रत्ययः तेन इवार्थः लक्ष्यते तद्धितश्चासर्वविभक्तिः इत्यव्ययम् नयसिद्धेः नयसाध्यफलात् अपनेतुं पृथक्कर्तुं न अर्हति असमयक्रोधस्य आत्मसन्तापातिरिक्तं फलं नास्तीत्यर्थः उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः अनपायि निबर्हणं द्विषां न तितिक्षा सममस्ति साधनम् उपकारकमिति आयतेः उत्तरकालस्य भृशम् अत्यन्तम् उपकारकम् स्थिरफलहेतुः इत्यर्थः भूरिणः प्रभूतस्य कर्मफलस्य प्रसूयते अनेनेति प्रसवः कारणम् अपायि न भवतीत्यनपायि स्वयम् अविनश्यदेव द्विषां निबर्हणं विनाशकम् एवङ्गुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति क्षान्तिः क्षमा तितिक्षा च इत्यमरः तिज निशाने इति धातोः गुप्तिच्किद्भ्यः सन् इति क्षमार्थे सन् प्रत्ययः तितिक्षासमम् इति अनुक्तोपमेया समासगा आर्थी लुक्तोपमा भृश आयति अनपायि शब्दैः साधनान्तरवैलक्षण्यात् व्यतिरेकश्च व्यज्यते भेदप्राधान्ये उपमानात् उपमेयस्य आधिक्ये विपर्यये च व्यतिरेकः प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः प्रणमन्ति सदा सुयोधनम् प्रथमे मानभृताम् न वृष्णयः प्रणतीति सहजस्नेहेन अकृत्रिमप्रेम्णा निबद्धचेतसः अस्मासु गाढम् लग्नचित्ताः सुयोधने तु न तथा इति भावः किञ्च मानभृताम् अहङ्कारिणाम् प्रथमे अग्रेसराः सुयोधनस्तु ततः अपीति भावः वृष्णयः यादवाः प्रणतिप्रवणान् प्रणामपरान् सुयोधनस्तु न तथा इति भावः नः अस्मान् विहाय सुयोधनं सदा न प्रणमन्ति न नमन्ति न अनुसरन्ति किन्तु कार्यकाले त्यक्ष्यन्त्येव इत्यर्थः सति यादवविग्रहे न किञ्चित् अस्माकम् असाध्यं भवेदिति भावः अनेकपदार्थहेतुकम् काव्यलिङ्गमलङ्कारः सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये विनयादिव यापयन्ति ते धृतराष्ट्रात्मजमात्मसिद्धये सुहृद इति किञ्च एषां वृष्णीनां ये सहजाः सहजाताः मातृपितृपक्षाः इत्यर्थः अन्येष्वपि दृश्यते इति डप्रत्ययः सुहृदः मित्राणि तथा इतरे कृत्रिमसुहृदश्च मतं वृष्णिपक्षं न विलङ्घयन्ति न अतिक्रामन्ति ते द्वयेऽपि नृपाः दुर्योधनोपजीविनोऽपीति भावः आत्मसिद्धये ఆత్మజీవనార్థం ధృతరాష్ట్రాత్మజం దుర్యోధనం వినయాత్ ఆనుకూల్యాద్ ఇవ యాపయంతి కాలం గమయంతి. కార్యకాలే తు వృష్ణిపక్ష ప్రవేశిన ఏవ ఇత్యర్థః. యాతేర్న్యంతాల్త్ లట్ అర్తిహ్రీ ఇత్యాదినా పుగాగమః.